अजामिलो नाम महीसुरः पुरा चरन् विभो धर्म कथाङ्घ्रिसाश्रमी गुरो गिरा काननमेत्यदृष्टवान् सुदृष्टशीलः कुलतः मदा कुलाम् स्वतः प्रशहन्तोऽपि तदा हृताशयः स्वधर्ममुत्सृज्य तया समारम अधर्मकारी दशमी भवन् पुनर्दधौ भवन् नाम युते सुते रतिम् समृत्युकाले यमराज किङ्करान् भयङ्करा स्त्रीनभिलक्षयन् भियात् पुरा मना त्वस्मिति वासना बलाद्युहा वनारायण नामकौ सुतौ दुराशयस्यापि तदा त्वनिर्गत त्वदीय नामाक्षरमात्र वैभवत् पुरो विपेतुर्भवदी अपाशदश्चतुर्भुजा पीतपटा मनोहराः अमुम् च सम्पाश्य विकर्षतो भटान् विमुञ्चते चारुरुदुर्बलादमी निवारिताश्च च भवज्जनैस्तदा तदीय पापम् निखिलौ न्यवेदय भवन्तु पापानि कथम् तु निष्कृते कृतेऽपि भोदन्दनमस्ति पण्डिताः न निष्कृतिः क्यों विदिता बवादृशाम् इति प्रभो त्वत् पुरुषः बभाषिरे श्रुतिस्मृतिव्या विहिता व्रतादयः पुनन्ति पापौ नलु नन्ति वासनाम् अनन्तसेवा तु निकृन्तति द्वयीभिति प्रभो त्वत्पुरुषा बभाषिरे अनेन वो जन्म सहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता यदग्रहीन्नाम भयाकुलो हरे इति प्रभो त्वत्पुरुषा बभाषिरे नृणाम बुद्ध्यापि मुकुन्द कीर्तनम् दहत्य गौगान् महिमास्य तादृशः यथाग्निरेदांसि यथौषधम् गतान् इति प्रभो त्वत्पुरुषा बभाषिरे इति वितैर्याम्य भटैरपाश्रिते भवद्भटानाम् च गणे तिरोहिते भवश्रुतिम् कञ्चन कालमाचरन् भवत्पदौ प्रापि भवद्भटैरसौ स्वकिङ्करा वेदन शङ्कितोऽयमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति स्वकीय भृत्या न शिशिक्षदुच्चकैः सदेव वातालयना तपाहि माम्।